पतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनश्चिन्वन्नोतिभ्यस्येदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवं बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृळया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशी यामिषुम् गिरिशम् तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु वाहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छावदामसि यता नः सर्वमिज्जगत यक्ष्मगुं सुमना असत् अध्यवोचदति वक्ता प्रथमो दैव्योऽभिषत् अहेगस्य सर्वाञ्जम्बयः सर्वास यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुम् रुद्राभितो दिक्षुश्रुता सहस्रशो वैशागुम् हेर इमहे असव्यो वसर्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृशो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीणुषे अतो ये अस्य सत्त्वानोऽहं तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मियोर्ज्याम् याश्च ते हस्त इषवः पराता भगवो वप अवतर्त्य धनुस्त्वगुं सहस्राक्षशतेषु दे निशील्य शल्यानामुखा शिवो न सुमना भव विद्यम् धनुक्रपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येशव आबुरस्य निषङ्गतिः याते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानातताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् ऋणक्तु विश्वतः अतो य इषु दिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः namo hiranyabhave senanye disham cha pataye namo namo vrikshebhyo harikeshebhyo pashunam pataye namo namah sasvinjalaya tvishimate patinam pataye namo namo babhlushaya vidyadine nanam pataye namo namo harikeshayopavitine pushtanam pataye namo namo bhavasya hetyai jagatam pataye namo namo rudraya tatavine kshetranam pataye namo namah sutaya hantyaya vananam pataye namo namo rohitaya stapataye vrikshanam pataye namo namo mantrine vanijaya kakshanam pataye namo namo bhuvantaye varivatsritayoshadhinam pataye namo nama uccairkoshaya krandayate pattinam pataye namo nama krishna vitaya dhavate sattvanam pataye namaha namasamanaya nivyadina avyadhininam pataye namo nama kakubhaya nishangine senanam pataye namo namo nishangina ishudhimate taskaranam pataye namo namo vanchate parivanchate sayunam pataye namo namo nicherave paricharaya ranyanam pataye namo nama srikavibhyo jigagum sadhyo mushnatam pataye namo namo simadhyo naktam charadhyo prakrantanam pataye namo nama ushnishine girichalaya kulunchanam pataye namo nama ishumadhyo danvavibhyascha vo namo nama atranvanebhyo pratidathanebhyascha vo namo nama ayachabhyo visrajabhyascha vo namo namasyabhyo vidyabhyascha vo namo nama asinebhyascha vo namo nama svapadbhyo jagrabhyascha vo namo nama stishtabhyo davabhyascha vo namo nama sabhabhyas sabhapatibhyascha vo namo namo ashvebhyo ashvapatibhyascha vo namaha nama avyadhinibhyo vividyantibhyascha vo namo nama uganabhyastrigum hatibhyascha vo namo namo gritsebhyo gritsapatibhyascha vo namo namo vratebhyo vratapatibhyascha vo namo namo ganebhyo ganapatibhyascha vo namo namo virupebhyo vishwarupebhyascha vo namo namo mahadbhyah chullakebhyascha vo namo namo ratebhyo ratebhyascha vo namo namo ratebhyo ratapatibhyascha vo namo nama senabhyasenanibhyascha vo namo namah shatrubhyas sangrahetrubhyascha vo namo namah rakshabhyo ratakarebhyascha vo namo namah kulalebhya karmarebhyascha vo namo namah punjeshtebhyo nishadebhyascha vo namo nama ishukrutbhyo danvakrutbhyascha vo namo namo mrigayobhyashvanebhyascha vo namo nama svabhyashvapatibhyascha vo namaha नमो भवाय च रुद्राय च नमः सर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीडुष्टमाय च सुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शीव्याय च नमः ऊर्म्याय चावस्वर्ण्याय च नमः श्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुद्धियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेनाय चाशुरताय च नमः शूराय चावबिन्धते च नमो वर्मिणे च वरूतिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषु धिमते च नमः शीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमः साराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कुल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः षष्ट्याय च पेण्याय च नमः स्विकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नम किगुंशिलाय च क्षयनाय च नम कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नम स्थल्प्याय च गेह्याय च नम कार्त्याय च गह्वरेष्ठाय च नमो
హృదయాయ చ నివేష్ప్యాయ చ నమః పాగుం సవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్వ్యాయ చ చూర్వ్యాయ చ నమః పర్ణ్యాయ చ వర్ణషద్యాయ చ నమోపగురమాణాయ చ విద్ధతే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమో వక్కిరికేభ్యో దేవానాగుం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వత్కేభ్యో నమ ఆనిర్హతేభ్యో నమ ఆమీవత్కేభ్యః ద్రాపే అంధసస్పతే దరిద్రన్నీలలోహితా ఏషాం పురుషాణామేషాం పశూనాం మా భేర్మా రోమో ఏషాం కించన మమత యాతే రుద్ర శివా తనో శివా విశ్వాః భేషజీ శివా రుద్రస్య భేషజీ తయానో మృణ జీవసే ఇమాగుం రుద్రాయ తవసేక పర్దినే క్షయద్వీరాయ ప్రభరామహే మతిం యతానశ్యమసద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృడానో రుద్రోతనో మయస్కృతి క్షయద్వీరాయ నమసా విధేమతే యచ్చం చయోశ్చ మనురాయజే పితా తదశ్యామ తవ రుద్ర ప్రణీతౌ మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వదే పితరం మోత మాతరం ప్రియామానస్తనువో రుద్రరీరిషః మానస్తోకేతన ఏమాన ఆయుషి మానో గోషు మానో అశ్వేషురీరిషః వీరాన్మానో రుద్రభామితో వదిర్ హవిష్మంతో నమసా విదేవతే ఆరాక్తే గోగ్న ఉత పూరుషగ్నే క్షయద్వీరాయ సుం నమస్మేతే అస్తు రక్షాచనో అరిచ దేవ బ్రూహ్యదాచన శర్మయచ్చ ద్విపర్హాః సుహిశ్రుతం గర్దసదం యువానం మృగన్న భీమముపహత్నుముగ్రం మృడాచరిత్రే రుద్రస్తవానో అన్యంతే అస్మన్నివ పంతు సేనాః పరిణో రుద్రస్య హేతుర్వినక్తు పరిత్వేషస్య దుర్మతిరగాయోః అవస్థిరా మగవద్యస్తనుష్వమీడుస్తోకాయ తనయాయ మృడయా మీడుష్టమ శివ తమ శివో నః సుమనా భవ పరమే వృక్ష ఆయుధం నిదాయ కృత్తిం వసాన ఆచర పినాకం బిభ్రదాగహీ వికిరిద విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివ పంతు సహస్రాణి సహస్రధా బాహువోస్తవ హేతయః తాసామీశానో భగవః పరాచీనాముఖాకృతిః సహస్రాణి సహస్రశూయ రుద్ర అధిభూమ్యా తేషాగుం సహస్రయోజనే వధన్వాని తన్మసే అస్మిన్ మహత్యర్నవేంతరిక్షే భవా అది నీలగ్రీవాసితి కంఠా శర్వా అదః క్షమాచరా నీలగ్రీవాశితి కంఠాదివగుం రుద్రా ఉపశ్రుతాః ఏ వృక్షేషు సస్మింజరా నీలగ్రీవా విలోహితాః ఏ భూతానామధిపతయో విశికాసక్రపర్దినః ఏ అన్యేషు వివిద్యంతి పాత్రేషు విపతో జనాన ये पताम् प्रतिरक्षय ऐलभ्रदायव्युदः ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिनः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्तिरे तेषागुंसहस्रयो जने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषभस्तेभ्यो दश प्राचे दश दक्षिणा दश प्रदेचे दशो देचे दशोद्वात्तेभ्यो नमस्ते नो मृणयन्तु तेऽयम् विष्मो यश्च नो द्वेष्टितम् भोजम् भेददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्वभुवनाधिवेश तस्मै रुद्राय नमो अस्तु येते सहस्रमयुतम् पाशा मृत्यो मत्याय हन्तवे तान्यज्ञस्य मायया सर्वा न वयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु हि यस्वशस्तु दन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेषजोऽयगुम् शिवाभिवर्षनः ॐ शान्ति 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 च मे मयश्च मे प्रियम् च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे
श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे भर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ॐ
शान्ति शान्ति शान्तिः
ॐ अहम् रुद्रेभिर्वचो विश्चराम्यमा नित्ये ऋत विश्वदेवै अहम् मित्रावरुणो वाभिभयम्यहमिन्द्राग्नि अहमश्विनो वा अहम् सोमामाहनसम् विवर्म्यहम् त्वष्टारमुतभूषणम् वगम् अहम् दादामि द्रवीणम् हविष्माते सुप्राव्ये यजामानाय सुन्वते अहम् राष्ट्रे सङ्गमानि वसूनाम् चिकितुषे प्रथमा यज्ञयानाम् ताम् देवाव्याददु पुरुत्रा भूरिस्तात्रा भूर्या वेशयन्ते मयासो अन्नामत्यो विपश्यति यः प्राणीति ये शृणोत्युक्तम् अमन्तमो मान्तौ भक्षयन्ति श्रुति श्रोत श्रद्धिवन्ते वदामि अहमेव स्वयमिदम् वदामि जुष्टम् देवेभिः ऋतमानोषेभिः यम् कामयेतम् तामुग्रम् कृणोमि तम् ब्रह्माणम् तम् ऋषिम् तम् सोमेधा अहम् रुद्राय धनुरातानोमि ब्रह्मद्विषे शरामेहन्तवाहो अहम् जनाय समदम् कृणोम्यहम् या वा पृथिवी आविवेश अहम् सोमे पितरामस्य मूर्धन्मम योनिरप्स्वा अन्तः समुद्रे ततो विशिष्टे भुवनानु विष्णु तामुष्मणोपस्पृशामि अहमेव पाता इव प्रवाम्यारवामान भुवानानि विश्वा परो निवा पर एना पृथिव्यैतावाति महिना सम्बाभूव ॐ शान्ति शान्ति शान्तिः ॐ भूमिर्भूम्नाद्यौर्वरिणान्तरिक्षम् महित्वा नमस्ते ते देव्यनि ते निवन्नादमन्नाध्यायादधे आयङ्गौ पृष्ठिरक्रमीदतनन्मातरम् पुनः पितरम् च प्रयन्सुवः त्रिगुंशद्धामविराजति वा पतङ्गाय शुश्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपानत्यन्तश्चरति रोचना यख्यन्महिषस्वः यत्त्वा क्रुद्धः परो वपमन्युयायदवन्या सुकल्पमग्ने तत्तव पुनस्तोदीपयामसि यत्ते मन्युपरोक्तस्य पृथिवी मनुदध्वसे आदित्या विश्वे तद्देवावसवश्च समाभरन् मनो ज्योतिर्जुषतामाज्यम् विच्छिन्नम् यज्ञगुम् समिमम् दधातु बृहस्पतितनुतामिमन्नो विश्वे देव इहमादयन्ताम् मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ब्रह्मवक्षस पितृणाविश्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसोभरि सघने सत्यायने सीता समुद्रवते सावित्री हनो देवी मह्यङ्गे महीधरणि महो व्यतिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिहा वायुमति जलशयनि श्रियम् धारा च सत्यम् ध्योपरि मेदिनी सोपरि दत्तम् परिगाया विष्णुपत्नी महीम् देवी माधवी माधवप्रिया लक्ष्मी प्रियसखीम् देवीम् नमाम्यच्युतवल्लभा धनुर्धराय विद्महे सर्वसिद्धे च धीमहि तन्नोधरा प्रचोदयात् महीम् देवीम् विष्णुपत्नी मयूर्या प्रतिजीवे नागम् हविषा यजामः त्रेधा विष्णुरुगायो विचक्रमे महीम् दिवम् पृथिवीमन्तरिक्षम् तच्छ्रोणे शिश्रव इच्छमाना पुण्यङ्गश्लोकम् यजमानाय कृण्वते ॐ शान्ति 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 ग्रन्थे ॐ हिरण्यवर्णाश्च चयः पावकायाश्च जातः कश्यपोयाश्चिन्द्रः अग्नेया गर्भम् दधिरे विरूपास्ता न आमशग्रस्योना भवन्तो या सागुम् राजा वरुणो याति मध्ये सत्यामृते अवश्यम् जनानाम् मधुश्च चक्षुच यो या पावकास्ता न आमशग्रस्यो न भवन्तु या चान् देवाधिविकृण्वन्ति भक्षय्य अन्तरिक्षे बहुधा भवन्ति या पृथिवीम् पयसोन्दन्ति शुक्रास्ता न आमशग्रस्यो न भवन्तु शिवेन मा चक्षुषामश्यनाम शिवया तनुवो मस्रुषतम् त्वचम् मे सर्वागुम् अग्निगुम् प्रसृषदो हुवे ओमैवच्छो फलमोजो निधत्ता पवमानः सुवर्जनः पवित्रेण विचर्षणिः यः पोता समुनातु मा पुनन्तु मा देव जनाः पुनन्तु मनवो धिया पुनन्तु विश्व आयवः जातवेदः पवित्रवत् पवित्रेण पुनाहि मा शुक्रेण देवदेद्यत् अग्ने क्रत्वा क्रतुगुम्रनो यत्ते पवित्रमर्चिषे अग्नेर्विततमन्तरा ब्रह्म तेन मुनीमहे उमाम्याम् देवसवितः पवित्रेण सवेन च इदम् ब्रह्म मुनीमहे वैश्वदेवी पुनते देव्यागात् यस्यैवस्तनुवो वीतमृष्टा तया मदन्तः सनमाद्येषु वयज्ञस्यामवतयोरयीणाम् वैश्वानरो रश्मिभिर्मा पुनातु वातः प्राणेने शिरो मयो भूः या वा पृथिवी पयसा पयोभिः ऋतावरे यज्ञे मा पुनीता ऋवन्निः सवितस्त्रुभिः वश्यष्टैर्देवमन्मभिः अग्ने दक्षैः पुनाहि मा येन देवा अपुनता येनापो दिव्यङ्कषः तेन दिव्येन ब्रह्मणा इदम् ब्रह्म मुनीमहे यः पावमाने रज्येति ऋषिभिः संवृतगुम् रसम् सर्वगुंसभूतमश्नाति सदितम् मातरिष्वना पावमानेर्यो अज्येति ऋषिभिः संवृतगुम् रसम् तस्मै सरस्वते दुहे क्षीरगुम् सर्पिर्मधोदकम् पावमाने स्वस्त्ययने सुदुगाहि वयस्वते ऋषिभिः संवृतो रसः ब्राह्मणेष्वमृतगुम् हितम् पावमाने द्विषन्त्वनः इमम् लोकमथो अमुम् कामान् समर्थयन्तु नः देवैर्देवैः समाभृताः पावमाने स्वस्त्यगने सुदुगाहि घृतश्च्युतः ऋषिभिः संवृतो रसः ब्राह्मणेष्वमृतगुम् हितम् येन देवा पवित्रेण आत्मानम् पुनते सदा तेन सहस्रधारेण पावमान्यः पुनन्तु मा राजापत्यम् पवित्रम् शतोद्यामगुम् हिरण्मयम् तेन ब्रह्मविदो वयम् भूतम् ब्रह्म पुनीमहे इन्द्रस्वनेते सामा पुनातु सोमस्वस्य वरुणः समीक्षा यमो राजा प्रवृणाभिः पुनातु मा जातवेदा मोर्जयन्त्या पुनातो भूर्भुवस्सुवः तच्छंयोराब्रणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये नैवे स्वस्तिरस्त्वनः स्वस्तिर्मानुषेम्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति 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 यो ब्रह्मा ब्रह्मण उज्जहार प्राणेश्वर कृत्तिवाचा पिनाकी ईशानो देवस्सन आयुर्दधातु तस्मै चुहोमिह विषाघृतेन विभ्राजमानः शरीरस्य मध्य रोचमानो धर्मरुचिर्य आगात् स मृत्युपाशानपनुद्य घोर निहायुषेणु घृतमत्तु देवः ब्रह्मज्योतिर्ब्रह्म पत्नीषु गर्भम् यमादधात् पुरुरूपम् जयन्तम् सुवर्णरम् वग्रहमर्कमर्चम् तमायुषे वर्धयामो घृतेन श्रियम् लक्ष्मीमौबलामम्बिकाङ्गाम् षष्ठीम् च यामिन्द्रसेने एत्युदावुः ताम् विद्याम् ब्रह्मयोनिदुम् स्वरूप मिहायुषे तर्पयामो घृतेन दाक्षायण्यः सर्वयोन्यः स योन्य सहस्रशो विश्वरूपादिरूपाः ततो नवः सपतयः स यूथ्य आयुषेणो घृतमिदम् जुषन्ताम् दिव्यागना बहुरूपा पुराण आयुश्चिदो न प्रमत्नन्तु वीरान् तेभ्यो जुहोमि बहुधा घृतेन मान प्रजागुम् वीरिशो मोत वीरान् एकः पुरस्तात्य इदम् बभूव यतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुंसाम् पराय स नो हविर्घृतमिरायुषे तु देवः वचो नुद्रानादित्यान् मरुतोत साध्यान् ऋभो यक्षान् गन्धर्वागश्च पितृगश्च विश्वान् भृगोन् सर्पागश्चाङ्गिरसोत सर्वान् हृतगुम् हुत्वा स्वायुष्यामायामशश्वत विष्णो त्वन्नो अन्तमः शर्म यच्च सहन्त्या प्रभेदा रामदुश्च्युत उच्चम् दुःखते अक्षितम् ॐ शान्ति
शान्ति शान्तिः ॐ ब्रह्ममेतु माम् मधुमेतु माम् ब्रह्ममेव मधुमेतु माम् यास्ते सोम प्रजा वत्सोऽभिसो अहम् दुःस्वप्नहम् दुरुश्रः यास्ते सोम प्राणागुस्ताञ्जुहोमि त्रिसुपर्णमयाचितम् ब्राह्मणाय दद्यात् ब्रह्महत्याम् वा एते ज्ञन्ति ये ब्राह्मणा त्रिसुपर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति ॐ ब्रह्ममेधया मधुमेधया ब्रह्ममेव मधुमेधया अद्यानो देवस्सवितः प्रजापत्साभिसौ भगम् परा दुःस्वप्नियगुम् सुवा विश्वानि देवसवितर्दुरितानि परा सुवा यद्भद्रम् तन्म आसुवा मधुवातारतायते मधुक्षरन्ति सिन्धवः माध्वीर्न सन्तोषधीः मधुनक्तमुतोषसि मधुमत्पाथि वगुं रजः मधुन्योरस्तु नः पिता मधुमान्नो वनस्पतिर्मधुमागुम् अस्तु सूर्यः माद्वीर्गावो भवन्तु नः य इमम् त्रिसुपर्णमयाचितम् ब्राह्मणाय दद्यात् भ्रूणहत्याम् वा एते ज्ञन्ति ये ब्राह्मणास्ति सुपर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति ॐ ब्रह्ममेधवा मधुमेधवा ब्रह्ममेव मधुमेधवा ब्रह्मा देवानाम् पदवीर्कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् श्येनो गृत्राणागुस्वधिर्वनानागुम् सोमः पवित्रमत्येतिरे भन्न हगुंस शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरो न सत् ऋषद्वरसदृतसद्यो वसदब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् रुचेत्त्वा रुचेत्त्वा समिश्रवन्ति सरितो न धेनाः अन्तर्हृदा मनसा पूयमानाः ऋतस्य धारा अभिचाकशीमे हिरण्ययो वेतसो मध्य आसाम् तस्मिन् सुवर्णो मधुकृत्कुलायि भजन्नास्ति मधुदेवताभ्यः तस्यासते हरयः सप्ततीरे स्वदाम् दुहाना अमृतस्य धाराम् य इदम् त्रिसुपर्णमयाचितम् ब्राह्मणाय दद्यात् वीरहत्याम् वा एते ज्ञन्ते ये ब्राह्मणास्ति सुपर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति ॐ शान्ति
शान्ति
शान्ति ईशानः सर्वविज्ञानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिः ब्रह्मणोऽधिपतिः ब्रह्मा शिवो मे अस्तु सदाशिवो तद्विष्णोत्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवि वचक्षुरातम् तद्विप्रासो विपन्यवोचाग्रवागुम् सस्यमिन्दते विष्णो यः परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वः प्रचोदयात् हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहीषाः गो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति।
shanti, 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 shanti.